त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं त्रिशाखै बिल्वपत्रैश्च अच्छिद्रै कोमलै शुभैः तव पूजां करिष्यामि एकबिल्वं शिवार्पणं दन्तिकोटिसहस्राणि किल पर्वतकोटयः काञ्चनं शीलदानेन एकबिल्वं शिवार्पणं काशीक्षेत्रनिवासं च कालभैरवदर्शनं प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वरः नक्तं होष्यामि देवेश एकबिल्वं शिवार्पणं रामलिङ्गप्रतिष्ठा च वैवाहिककृतं तथा तडागादि च सन्तानं एकबिल्वं शिवार्पणं अखण्डबिल्वपत्रं च आयुधं शिवपूजनं कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं उमया सह देवं च नन्दिवाहनमेव च भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणं सालग्रामेषु विप्राणां तडाकं दशकूपयोः यज्ञकोटिसहस्रं च एकबिल्वं शिवार्पणं दन्तिकोटिसहस्रेषु अश्वमेधशतकृतौ कोटिकन्या महादानं एकबिल्वं शिवार्पणं बिल्वानां दर्शनं पुण्यं स्पर्शनं पापनाशनं अघोरपापसंहारं एकबिल्वं शिवार्पणं सहस्रवेदपाठेषु ब्रह्मस्थापनमुच्यते अनेकव्रतकोटीनां एकबिल्वं शिवार्पणम् अन्नदानसहस्रेषु सहस्रोपनयनं तथा अनेकजन्मपापानि एकबिल्वं शिवार्पणम् बिल्वस्तोत्रमिदं पुण्यं यः पठेत् शिवसन्निधौ शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् दर्शनं बिल्ववृक्षैश्च स्पर्शनं पापनाशनम् अघोरपापसंहारम् एकबिल्वं शिवार्पणम् एकं च बिल्वपत्रैश्च कोटियज्ञफलं लभेत् महादेवैश्च पूजार्थम् एकबिल्वं शिवार्पणम् बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम्।